अथ सूर्य अष्टकम् आदिदेवा नमस्तुभ्यं प्रसीद मम भास्कर दिवाकरा नमस्तुभ्यं प्रभाकरा नमस्तुते सप्तस्वरदा मरुधं प्रचंदं कश्यपद्मजं श्वेतपद्माधरं दीवं तं सूर्य प्रणमाम्यहम् लोहितं रथमरुधं सर्वलोकपितामहं महापापहरं देवं तं सूर्यं प्रणमाम्यहम् त्रैगुण्यं च महाशूरं ब्रह्म विष्णुमहेश्वरं महापापहरं देवं तं सूर्यं प्रणमाम्यहं ब्रह्मेथं तेजपूजं च वायुराकशमेव च प्रभुस्थवं सर्वलोकानां तं सूर्यं प्रणमाम्यहं बन्धुकपुष्पशाङ्काशं हलाकुन्दलाभूषितम् इकाचक्राधरं देवं तं सूर्यं प्रणमाम्यहं तं सूर्यं जगत्कर्तरं महातेजं प्रदीपनं महापापहरं देवं तं सूर्यं प्रणमाम्यहं तं सूर्यं जगथं नाथं घनविघ्नमोक्षदं महापापहरं देवं तं सूर्यं प्रणाम्यहम् तं सूर्यं प्रणाम्यहम् तं सूर्यं प्रणाम्यहम्।